तृतीयोऽध्यायः अन्तर्बहिस्सङ्गं विनिन्द्य ज्ञानिनः स्वरूपनिष्ठा कथनम्। अष्टावक्र उवाच: अविनाशिनमात्मानम् एकं विज्ञाय तत्त्वतः तवात्मज्ञस्य धीरस्य कथमर्थार्जने रतिः। आत्माज्ञानाद् अहो प्रीतिः विषये भ्रमगोचरे, शुक्तेरज्ञानतो लोभः यथा रजतविभ्रमे। विश्वम् स्फुरति यत्रेदम् तरङ्गा इव सागरे, सोऽहमस्मीति विज्ञाय किम् दीन इव धावसि। श्रुत्वापि शुद्धचैतन्यम् आत्मानम् अतिसुन्दरम् उपस्थेत्यन्तसंसक्तो मालिन्यमधिगच्छति। सर्वभूतेषु च आत्मानम्, सर्वभूतानि च आत्मनि। मुनेर्जानत आश्चर्यम् मम त्वमनुवर्तते। आस्थितः परमाद्वैतम् मोक्षार्थेऽपि व्यवस्थितः, आश्चर्यम् कामवशगो विकलः केलिशिक्षया। उद्भूतम् ज्ञानदुर्मित्रम् अवधार्याति दुर्बलः, आश्चर्यम् काममाकाम्क्षेत् कालमन्तमनुश्रितः। इहामुत्र विरक्तस्य नित्यानित्यविवेकिनः, आश्चर्यम् मोक्षकामस्य मोक्षादेव विभीषिका। धीरस्तु भोज्यमानोऽपि पीड्यमानोऽपि सर्वदाम्, आत्मानम् केवलम् पश्यन् न तुष्यति न कुप्यति। चेष्टमानम् शरीरम् स्वम् पश्यत्यन्यशरीरवत्, संस्तवे चापि निन्दायाम् कथम् क्षुभ्येन्महाशयः। मायामात्रमिदम् विश्वम् पश्यन् विगतकौतुकः, अपि सन्निहिते मृत्यौ कथम् त्रस्यति धीरधीः। निःस्पृहम् मानसम् यस्य नैराश्येऽपि महात्मनः, तस्यात्मज्ञानतृप्तस्य तुलना केन जायते। स्वभावादेव जानानो दृश्यमेतन्न किञ्चन, इदम् ग्राह्यमिदम् त्याज्यम् स किम् पश्यति धीरधीः। अन्तस्त्यक्तकषायस्य निर्द्वन्द्वस्य निराशिषः, यदृच्छयागतो भोगः न दुःखाय न तुष्टये। ॐ